एसआर रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक रामहरि दालः द्वितीय प्रदेशस्य प्रदेशसभाया उपवेशि प्रदेशस्य नामकरणस्य सम्बन्धे सत्तारूढाभ्यां समाजवादी दल राष्ट्रिय जनता दल राजपा दलाभ्यां संयुक्त रूपेण प्रस्तुत प्रस्तावोऽपि अस्वीकृतो वर्तते। उपवेशे सत्तारूढाभ्यां समाजवादी दल राजपा दलाभ्यां संयुक्त रूपेण प्रस्तुते मधेश प्रदेश प्रस्तावे मतदाने विहिते पक्षे षष्टि विपक्षे षड्चत्वारिंशच्च मतानि प्रदत्तानि एकं मतं निरस्तीभूतमिति अस्माकं संवाददात्रा अजय कुमार झा विधेन ज्ञापितमस्ति। तत्पूर्व नेकपा दलेन प्रस्तुत जानकी प्रदेश सम्बद्ध नेपाली कांग्रेस दलेन प्रस्तुत मिथिला भोजपुरा सम्बद्ध प्रस्तावश्च अस्वीकृतौ आस्ताम्। राष्ट्रिय सभाया यस्तनोपवेशेन शिक्षा सम्बद्धानं कच्चिन् नेपालाधिनियमानं गतविक्रमावधीयं संशोधन विधेयकं सर्वसम्मत्या पारितीकृतं वर्तते। उपवेशे शिक्षा विज्ञान प्रविधि मन्त्रिणा गिरिराजमणि पोखरेलेन प्रतिनिधिसभातः संशोधितं शिक्षा सम्बद्धानां कच्चित् नेपालाधिनियमानं संशोधन विधेयकं पुनः पारितीकृतामिति निगद्य प्रस्तुतः प्रस्तावः उपवेशेन सर्वसम्मत्या पारितीकृतोऽस्ति। विधि न्याय संसदीय विषय मन्त्रिणा डा शिवमाया तुम्बा अम्फी विधेया गत विक्रमावधीये प्रमाण द्वितीय संशोधन विधेयके प्रतिनिधिसभातः विहितं संशोधनं विचार्यतामिति निगद्य प्रस्तुतः प्रस्तावः उपवेशेन सर्वसम्मत्या स्वीकृतो वर्तते। राष्ट्रियसभाया अपरोपवेशः सो दिवा एकवारिणि बस्ता। प्रतिनिधिसभाया अर्थ समितौ सुरक्षा प्रत्ययन कोष सम्बद्धान् विधिन् संशोधयितुम् एकीकर्तुञ्च निर्मितं गत विक्रमावधीयं विधेयकम् विमृश्यमानमस्ति। उपवेशे समितेः सदस्यैः पृष्टान् प्रश्नान् उत्तरयन् अर्थमन्त्री डा युवराज खतुरा सुरक्षा प्रत्ययन कोष सम्बद्धस्य नियामक निकायस्य सुदृढीकरणस्य सुरक्षा प्रत्ययन कोष प्राधिकरणस्य सशक्त निकायस्य रूपेण स्थापनायाश्च परिकल्पना विधेयकेन विहितास्तीति अज्ञापयते। प्रतिनिधिसभायाः विकास प्रविधि समितेः गतदिवसीयोपवेशे सांसदाः पेयजलस्य कृते प्रयोक्तव्ये विद्युत्शुल्के सर्वकारेण प्रतिशतं पञ्चाशतं यावत् अनुदानस्य व्यवस्था विधातव्येति अवोचन्। उपवेशे सांसदाः पेयजलम् अत्यावश्यक पदार्थो वर्तते, संविधानानुसारेण मौलिकाधिकारस्य अस्तित्व हेतोः अत्र अनुदानं दातव्यमिति अतर्कयन्। उपवेशे पेयजलमन्त्री बीना मगर अगदत् समितौ पेयजलस्य शुल्क सदृशे विषये महत्वपूर्ण विमर्शनं सम्भूतमित्यतः अत्र व्यावहारिकरूपेण विश्लेषणं विधातव्यम्। उपवेशे मन्त्रालय सचिव माधव बेलवासे समिति सभापति कल्याणी कुमारी खड्का च मन्तव्यम् उपास्थापयताम्। उद्योग वाणिज्यापूर्ति मन्त्री लेखराज भट्ट भाषते आपणेष् दैनिकोपभोग्य वस्तूनाम् आपूर्तिम् सहजाम् विधातुम् सर्वकारेण सौविध्यपूर्णानाम् आपणानाम् सञ्चालनाय पूर्वकार्यम् विधीयमानम् वर्तते। प्रतिनिधिसभाया अन्तर्गताः उद्योग वाणिज्य श्रमोपभोक्तृ हित समितेः ह्यः सिंहप्रासादे उपविष्टे उपवेशे मन्त्री भट्टः कोरोना जीवाणूनाम् कारणेन आपणेषु दैनिकोपभोग्य वस्तूनाम् अभावस्य निवारणाय साल ट्रेडिङ कर्पोरेशन खाद्य व्यवस्था व्यापार कम्पनी संस्थानयोः संयन्त्राणि परिचाल्य विभिन्नेषु स्थानेषु सौविध्यपूर्णानाम् सञ्चालनशीलानाञ्च आपणानाम् सञ्चालनाय पूर्वकार्यम् विधीयमानमस्तीति अबोधयत्। मन्त्री भट्टः आपणेषु दैनिकोपभोग्य वस्तूनाम् कृत्रिमाभावस्य तास्कर्यस्य च निरोधनाय आराष्ट्रम् आपणानुगमने तीव्रता दत्तास्तीति ज्ञापितवान्। मन्त्री भट्टः कोरोना जीवाणूनाम् प्रकोपेण अर्थतन्त्रस्य समग्र क्षेत्रेषु सम्भाव्यम् प्रभावम् न्यूनयितुम् सर्वकारेण उच्च सावधानतया कार्याणि विधीयमानानि सन्तीति समसूचयत्। शिक्षा विज्ञान प्रविधि मन्त्री गिरिराजमणि पोखरेलः स्वस्थन दिवसतः प्रारम्भमाणायाम् दशमकक्षाया एसईई नामधेयायाम् माध्यमिक शिक्षा परीक्षायाम् कोरोना जीवाणुभ्यः त्रस्ता न भूत्वा सहभागिनो भवितुम् विद्यार्थिनः आह्वयति। मन्त्रिणा पोखरेलेन ह्यः सारिणीकृते अनुरोध पत्रे कोरोना जीवाणूनाम् संक्रमणस्य संकटम् प्रति सचेष्टाः भवितुम् अनुरुन्धता। सर्वेषु केन्द्रेषु स्वास्थ्य सहायता कक्षाणाम् प्रबन्धः विहितोऽस्तीति हेतोः त्रासानुभवनम् आवश्यकम् नास्तीति उल्लिखितम् वर्तते। नेपाल तैल निगमेन यात्राया अनुसारेणैव पाचनेन्धनस्य तैलानाञ्च आयातः विधीयमानोऽस्तीति ज्ञापितम् वर्तते। रिपोर्टर्स क्लब नेपालेन गतदिने आयोजितायाम् अन्तर्क्रियायाम् निगमस्य कार्यकारी निदेशकः सुरेन्द्र पौड्यालः यात्रातः लक्षाणाम् पञ्चत्रिंशता अधिकेषु पाचनेन्धन भाण्डेषु आयातेषु सत्सु अपि उपभोक्तृणाम् पाचनेन्धनस्य भण्डारणस्य प्रवृत्तेः कारणात् वस्तूनाम् विक्रयणे वितरणे च समस्या उत्पन्नास्तीति धारणाम् उपास्थापयत्। नेपाली कांग्रेस दलस्य नेता प्रकाशमान सिंह भाषते कोरोना जीवाणूनाम् नाम्नि विधीयमानम् तास्कर्यम् रोद्धुम् जनप्रतिनिधिभिः महत्वपूर्णा भूमिका निर्वहणीया। नेपाली कांग्रेस दलस्य काष्ठमण्डपस्य क्षेत्रीय सभापतिः काष्ठमण्डप महानगरपालिकायां दलस्य पक्षतः निर्वाचितै जनप्रतिनिधिभिः सह गतदिने विहिते विमर्शने नेता सिंह अभासत क्रियमाणं तास्कर्यं रोद्धुं सर्वकारण हस्तक्षेपकारिणी भूमिका निर्वहणीया। भरतपुर महानगरपालिकाया दशवटा स्थिति चितवन प्रदर्शनी केन्द्रे भरतपुर कोरोना विशेष चिकित्सालय सञ्चालयिष्यति। भरतपुर महानगरपालिकाया सक्रियतायां गतदिने चितवने सम्पन्नेन सम्बद्ध पक्षानाम् उद्देश्येन सप्तत्याशय्यानां चिकित्सालयं तत्कालमेव निर्मातुं निर्णीतम्। उद्देश्येन महानगरपालिकाया प्रमुखाय रेणु दाहालस्य संयोजकत्वे पञ्चदश सदस्यीयं कोरोना जीवाणु संक्रमण नियन्त्रण पूर्व कार्यकार्यदलं संघटितमस्ति। बर्दिया जनपदे कोरोना जीवाणुनां संक्रमणस्य प्रवेशन निरोधनाय पञ्चदश दिनानि यावत् जनपदस्य सर्वान् आपणान् पिधातुं भारत नेपालयोः नागरिकाणां कृते प्रवेश बिन्दुषु गमनागमनं सुरक्षाकरणं स्वीकृतिम् अवाप्य एव कर्तुं च निर्णीतमिति बर्दिया जनपद प्रशासन कार्यालयो ज्ञापयति। कोरोना जीवाणुनां संक्रमणस्य संकटं ध्यात्वा भोजपुर जनपदस्य स्वास्थ्य संस्थासु क्रियारताः स्वास्थ्यकर्मिणः अत्यावश्यक कारण विना अवकाशे स्थातुं न प्राप्नुवन्ति। भोजपुर जनपद चिकित्सालयेन संक्रमणस्य संकटं ध्यात्वा स्वीय स्वास्थ्यकर्मिभ्यः अत्यावश्यक कारण विना अवकाशं न प्रदातुं निरन्तरं सचेष्टावस्थां थातुं च निर्णीतं वर्तते इति समाचारः।